इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचकः पुनीत त्रिपाठी। अथ वार्ताः। प्रधानमन्त्री नरेन्द्र मोदी अद्य प्रातः 11 वादने आकाशवाणीतः मन की बात इति कार्यक्रमे स्वकीयं मनोगतं प्रकटयिष्यति। मासिकस्य आकाशवाणी कार्यक्रमस्य एतद् 26th संस्करणं भविष्यति। आकाशवाण्याः दूरदर्शनस्य च सर्वाभिः वाहिनीभिः अस्य कार्यक्रमस्य प्रसारणं भविष्यति। अयं हि आकाशवाणी वार्ता विभागस्य अन्तर्जालपटले www.newsonair.gov.in इत्यत्र अपि च न्यूज ऑन एआईआर इति चलदूरभाषीये तन्त्रांशे अपि उपलब्धः भविष्यति। आकाशवाणी दूरदर्शन वार्ता प्रधानमन्त्री कार्यालय सूचना प्रसारण कार्यालयानां यूट्यूब वाहिनीभिः अपि अस्य कार्यक्रमस्य साक्षात् प्रसारणं भविष्यति। हिन्दीभाषायां प्रसारणस्य पश्चात् अस्य प्रसारणम् आकाशवाण्या क्षेत्रीयासु भाषासु अपि भविष्यति। प्रधानमन्त्री नरेन्द्र मोदी ह्यः ओडिशायाः झारसुगुडातः 60,000 crore rupees नैकासां विकास परियोजनानां उद्घाटनं शिलान्यासं च अकरोत्। तेनोक्तं यत् भारतं दूरसंचार प्रौद्योगिक्याः वैश्विकं केन्द्रं भवितुम् अग्रसरम् अस्ति। एताः परियोजनाः दूरसंचार रेलवे उच्च शिक्षा स्वास्थ्य सेवा कौशल विकास ग्रामीण आवासञ्च समेत्य विविध क्षेत्रैः सह सम्बद्धाः सन्ति। श्रीमोदिना सूरतस्य उधना इत्यस्य ओडिशायाः च ब्रह्मपुरस्य मध्ये सञ्चाल्यमानाय गुजरातस्य प्रथमामृत भारत एक्सप्रेस रेलयानाय अपि वर्चुअल इति प्रातिभाषिक माध्यमेन हरितध्वज प्रदर्शितः। अत्रावसरे ओडिशायाः राज्यपालः हरिबाबू कम्बम्पतिः मुख्यमन्त्री मोहन चरणमाझी अन्य गणमान्यजनाः उपस्थिताः आसन्। अस्मिन् अवसरे केन्द्रीय रेलमन्त्री अश्विनी वैष्णवः केन्द्रीयो जलशक्तिमन्त्री CR पाटिलः च उधना रेलवे स्थाने उपस्थितौ अवर्तताम्। प्रधानमन्त्री जनसभां सम्बोधयन् अवोचत् यत् केन्द्रप्रशासनेन सद्य एव राज्ये द्वयोः सेमीकण्डक्टर संयन्त्रयोः स्थापनायै अनुमति प्रदत्ता। अयम् ओडिशायाः औद्योगिक प्रौद्योगिक विकासम् उन्नेतुं महत्वपूर्ण पदक्षेपः अस्ति।
हमारे लिए गौरव की बात है कि हमारे BSNL ने अपने ही देश में पूरी तरह स्वदेशी 4G टेक्नोलॉजी विकसित कर ली है। अपनी मेहनत, अपनी लगन, अपनी कुशलता से BSNL ने नया इतिहास रच दिया है।
तमिलनाडु राज्यस्य करूर नगरे एकस्यां राजनैतिक जनसभायां भगदड़ इति जनसमूहानां अनियंत्रणे मृतानां संख्या 38 अभवत्। विभिन्नेषु चिकित्सालयेषु 85+ जनाः उपचाररताः सन्ति। तमिलनाडु राज्यस्य मुख्यमंत्री MK Stalin इत्यनेन ह्यः पददलने मृतकानां परिवाराणां कृते 10 lakh rupees अनुग्रह राशेः घोषणा कृता। ये ICU विभागे चिकित्सारताः सन्ति तेभ्यः 1 lakh rupees प्रदीयन्ते। मुख्यमंत्री उच्चन्यायालयस्य सेवानिवृत्तस्य न्यायाधीशस्य अरुणा जगदीशन इत्यस्याः अध्यक्षतायां घटनायाः कारणम् अन्वेषणार्थम् 1-सदस्यीय आयोगस्य घोषणाम् अकरोत्। राष्ट्रपति द्रौपदी मुर्मू, उपराष्ट्रपति CP राधाकृष्णन, प्रधानमन्त्री नरेन्द्र मोदी च घटनायां मृत्युषु दुःखं प्रकटितवन्तः। उपराष्ट्रपति CP राधाकृष्णनवर्यः अद्य बिहारस्य एकदिवसीय यात्रायां भविष्यति। सः पटनानगरे उन्मेष अन्ताराष्ट्रिय साहित्य महोत्सवस्य तृतीय संस्करणस्य समापन सत्रे मुख्यातिथिरूपेण सम्मिलितः भविष्यति। उपराष्ट्रपतिः मुजफ्फरपुरस्य कटरानगरस्य चामुण्डा देवी मन्दिरेऽपि गमिष्यति। पुरुषाणां 20-प्रति20 एशिया चषक प्रतिस्पर्धायाः निर्णायक स्पर्धा भारत पाकिस्तान देशयोः मध्ये अद्य दुबई नगरे भविष्यति। स्पर्धायाः आरम्भः भारतीय समयानुसारं सायं 8 वादने भविष्यति। इति वार्ताः।